एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। राष्ट्रपतिः रामचन्द्र पौडेलः स्वस्थन दिवसात् अस्यैव माघमासस्य एकविंशम् दिवसम् यावत् जापान देशस्य औपचारिकम् भ्रमणम् विधाता। नेपाल जापान देशयोः कूटनीतिक सम्बन्ध स्थापनायाः सप्ततेः वर्षाणाम् प्राप्तेः अवसरे जापान सर्वकारस्य निमन्त्रणायाम् राष्ट्रपतिः पौडेलः नेपाली प्रतिनिधिमण्डलस्य नेतृत्वम् विधाय स्व नेपाल वायुसेवायाः विमानेन जापान देशम् प्रति प्रस्थातेति परराष्ट्र मन्त्रालयस्य सचिवः अमृत बहादुर राई असूचयत्। भ्रमणं प्रपूर्य राष्ट्रपतिः पौडेलः अस्यैव माघमासस्य एकविंशे दिवसे स्वदेशं प्रत्यागमिष्यति। भ्रमणस्य अवसरे राष्ट्रपतिना पौडेलेन माघमासस्य विंशे दिवसे टोकियो वर्तिनी इम्पेरियल प्रासादे जापान देशस्य सम्राजा नारुहितो इत्यनेन सह शिष्टाचार मेलवार्ता करिष्यते। तस्मिन् एव दिवसे राष्ट्रपतिना पौडेलेन सह जापान देशस्य प्रधानमन्त्री ताकाइची सानाए इत्यनया मेलवार्ता करिष्यते इति च परराष्ट्र मन्त्रालयेन ज्ञापितम् वर्तते। राष्ट्रपतिः पौडेलः माघमासस्य एकोनविंशे दिवसे नेपाल जापान देशयोः कूटनीतिक सम्बन्ध स्थापनायाः सप्ततितमस्य वार्षिकोत्सवस्य अवसरे जापान सर्वकारस्य पक्षतः आयोक्ष्यमाणे विशेष स्वागत समारोहे सहभागी भविष्यति। भ्रमणस्य क्रमे राष्ट्रपतिः पौडेलः जापान देशीय व्यावसायिकानाम् उपवेशे च सहभागी भविष्यति। राष्ट्रपतिः पौडेल जापान देशवर्तिना नेपाली दूतावासेन राष्ट्रपतेः सम्माने आयोक्ष्यमाणे स्वागत समारोहे च सहभागी भविष्यति इति च परराष्ट्र मन्त्रालयेन ज्ञापितम् वर्तते। निर्वाचन आयोगेन आचार संहितायाः उल्लंघनस्य कार्यम् नियन्त्रयितुम् तीव्ररूपेण स्वस्य गतिविधयः वर्धिताः वर्तन्ते। आगामिना फाल्गुन मासस्य एकविंशाय दिवसाय निर्धारितम् प्रतिनिधिसभायाः सदस्यानाम् निर्वाचनम् स्वच्छम् निष्पक्षम् विश्वसनीयम् पारदर्शी च विधातुम् एतत् विक्रमवर्षीय निर्वाचनाचार संहिता क्रियान्विता अस्ति। आचार संहितायाः पूर्णतः पालनायै आयोगेन सम्बद्धाः सर्वे जनाः ध्यानाकृष्टाश्च वर्तन्ते। केन्द्रीयाचार संहितानुगमन समितौ प्राप्तानाम् निवेदनानाम् सूचनायाश्च आधारेण अधुनावधि राजनीतिक दलानि प्रत्याशिनः संस्थाश्चेति कृत्वा एकविंशत्यै निकायेभ्य स्पष्टीकरणानि पृष्ठानि वर्तन्ते। निर्वाचनायोगेन आगामिनः फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभा सदस्यानाम् निर्वाचनस्य कृते विभिन्न जनपदानाम् निर्वाचनक्षेत्राणाम् च मतपत्राणाम् निदर्शनरूपम् सार्वजनिकृतम् वर्तते। आयोगेन सप्तानामेव प्रदेशानाम् जनपदानाम् मतपत्राणाम् निदर्शनरूपम् सार्वजनिकृतम् वर्तते। गृहमन्त्रालयेन वडास्तरेषु क्रियाशीलानाम् राजनीतिक दलानाम् पदाधिकारिणाम् प्रबुद्धानाम् जनानाम् च सहभागितायाम् स्वतन्त्रे निष्पक्षे भयरहिते च वातावरणे निर्वाचनम् सम्पादयितुम् अवधारणा निर्मिता अस्ति। निर्वाचनस्य सर्वासु प्रक्रियासु राजनीतिक दलानाम् नागरिक समाजस्य संचार जगतः नैजक्षेत्राणाम् प्रबुद्ध जनानाम् च भूमिका महत्वपूर्णा भवतीत्यतः गृहमन्त्रालयेन एतद् विक्रमवर्षीया सुव्यवस्थितस्य निर्वाचनस्य व्यवस्थापनाय वडास्तरम् यावद् समन्वयस्य सहकार्यस्य च अभिवृद्धि सम्बद्धाम् अवधारणाम् निर्माय तदनुसारेणैव कार्यम् कर्तुम् जनपद प्रशासन कार्यालयेभ्य पत्राचारः विहितोऽस्ति। वडास्तरेषु विद्यमानान् राजनीतिकजनान् पदाधिकारिणः प्रबुद्धान् जनान् च निर्वाचन व्यवस्थापन प्रवृत्तिषु कार्येषु समाविश्य निर्वाचनस्य स्वत्वम् सम्बध्य स्वतन्त्रे निष्पक्षे भयरहिते च वातावरणे निर्वाचनम् सम्पादयितुम् अवधारणा सार्वजनिकता स्थिति मन्त्रालयस्य प्रवक्ता आनन्द काफले असूचयत्। अवधारणायाः क्रियान्वयनाय प्रमुख जनपदाधिकारिभ्य जनपद सुरक्षा समितिनाम् सर्वेभ्य पदाधिकारिभ्यश्च दायित्वम् प्रदत्तमस्ति चेद् अस्य क्रियान्वयनस्य अवस्थायानुगमनम् नियमनम् च गृहमन्त्रालयेन सुरक्षा निकायानाम् केन्द्रीय कार्यालयैश्च विधास्यन्ते इति ज्ञापितमस्ति। नेपाले प्रजातन्त्रस्य स्थापनायै कृतप्राणात् सर्गाणाम् हुतात्मनाम् स्मृतौ अस्यैव माघमासस्य दशम दिवसात् प्रारब्ध हुतात्म सप्ताह इह सम्पन्नोऽस्ति। एकतन्त्रात्मकस्य राणाशासनस्य न्यायेभ्यः अत्याचारेभ्यः सम्मुक्तिं प्रदाय प्रजातान्त्रिक शासन व्यवस्थायाः स्थापनायै कृतजीवनोत्सर्गाणां देशस्य विभिन्नेषु समयेषु सम्पन्नेषु राजनीतिकान्दोलनेषु कृतजीवनोत्सर्गाणां च संस्मरणे प्रतिवर्ष माघमासस्य दशमदिवसात् षोडश दिवसं यावत् विभिन्नैः कार्यक्रमैः हुतात्मसप्ताह समायोज्यते। हुतात्मसप्ताहस्य अन्तिमदिने ह्य प्रधानमन्त्री सुशीला कार्की लयनचोरवर्तिनी हुतात्मोद्यानं प्राप्य हुतात्मनां प्रतिमासु माल्यार्पणं कृत्वा तेभ्य श्रद्धाञ्जलिम् अर्पितवती। सभायां प्रधानमन्त्री कार्की, गृहमन्त्री ओम प्रकाश आर्याल, मन्त्रिण, उच्चपदस्थाधिकारिण, जनप्रतिनिधय, सुरक्षानिकायानां प्रमुखाश्च सहभागिन आसन्। कार्यक्रमे काष्ठमण्डप महानगरपालिकायाः कार्यवाहक प्रमुख सुनीता डंगोलः नागरिक स्वतन्त्रतायाः मानवाधिकाराणां सुशासनस्य स्वाभिमानस्य च कृते विहितः हुतात्मभिः प्रयत्नः त्यागश्च अविस्मरणीयौ इति अगदत्। गृहमन्त्री ओमप्रकाश आर्यालः कथयति राष्ट्रस्य ऊर्जसः प्रेरणायाः मार्गदर्शनस्य च शाश्वत स्रोतसा रूपेण हुतात्मनः वर्तन्ते। राष्ट्रिय हुतात्म दिवसस्य अवसरे ह्य काष्ठमण्डपस्य गोकर्णेश्वर नगरपालिकायाः हुतात्मोद्याने आयोजिते जैनयुववर्गाणां सुशासन योद्धृणाम् अमर प्रहरिणश्च विवरणयुतस्य हुतात्म स्मृतिस्तम्भस्य उद्घाटन समारोहे गृहमन्त्री आर्यालः हुतात्मनां बलिदानस्य कारणेनैव अधुना देशे स्वतन्त्रता प्राप्ता स्थिति धारणां व्यक्तवान्। जुम्ला जनपदे प्रतिनिधिसभायाः सदस्यानाम् आगामिनः निर्वाचनस्य क्रमे प्रतिस्पर्धायां विद्यमानै प्रत्याशिभिः निर्वाचनाचार संहितायाः पूर्णतः पालनं कर्तुं प्रतिबद्धता व्यक्तास्ति। एकमात्रं निर्वाचनक्षेत्रयुते जुम्ला जनपदे नव राजनीतिक दलानि एकः स्वतन्त्रश्चेति कृत्वा दश प्रत्याशिनः निर्वाचने प्रतिस्पर्धायां वर्तन्ते। जनपदस्य मुख्यालये खलंगा बजार स्थाने ह्य आयोजिते सर्वदलीयोपवेशे निर्वाचनायोगेन क्रियान्विताया निर्वाचनाचार संहिताया पूर्णतः पालनायै सर्वै राजनीतिक दलै प्रत्याशिभिश्च प्रतिबद्धता व्यक्तास्ति। सिराह जनपदस्य सिराह नगरपालिकायाः प्रथमवडा क्षेत्रे पञ्चचत्वारिंशत् वर्षीयस्य प्रेमनाथ यादवस्य गोलिका प्रहारेण मृत्युः सम्भूतो वर्तते। सिराह नगरपालिकायाः सप्तमवडा क्षेत्रस्य मैनावती नद्याः तटे स्वस्यैव क्षेत्रे ट्रैक्टरयानस्य सञ्चालनस्य अवस्थायाम् अज्ञातजनेन गोलिकायाः प्रहार कृतोऽस्ति। घटनास्थले एव यादवः मृतोऽस्तीति प्रहरिणा ज्ञापितं वर्तते। सिराह जनपद प्रहरी कार्यालयस्य अनुसारेण घटनायाः कारणं संलग्न व्यक्तेश्च अनुसन्धानं विधीयमानमस्ति। अधुनावधि घटनायाः सत्यतथ्ये उद्घाटिते नास्त। प्रहरिणः अनुसारेण घटनास्थलं सुरक्षितं कृत्वा अधुना अतिरिक्तम् अनुसन्धानम् अग्रे वर्धापितं वर्तते। माधवनारायणस्य एकमासात्मकं दीर्घं व्रतम् उपोचरिताः व्रतालवः पूर्वे द्युचाङ्गुनारायणवर्तिन्यां सादा पुष्करिण्यां स्नानं कृत्वा चाङ्गुनारायणदेवस्य मूलमन्दिरे माधवनारायणं संस्थाप्य पूजाराधने विदाय सालीनदीं प्रत्यावृताः वर्तन्ते। प्रतिवर्षं पौषशुक्लपूर्णिमातः माघमासस्य पूर्णिमां यावत् शाकुवर्तिन्यां सालीनद्यां लक्षस्य जनाः आगच्छन्ति। प्रतिवर्षं माघशुक्ल द्वादश्यां दिने प्रातः माधवनारायणस्य व्रताचरितवद्भिर्जनै सादः पुष्करिण्यां स्नानं कृत्वा चाङ्गुनारायणमन्दिरे माधवनारायणस्य रथं संस्थाप्य पूजाराधनयोः परम्परा प्राचीनकालात् स्थिता अस्ति।